एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः सर्वकारेण आगामिनः आश्विनस्य प्रथमदिवसतः आन्तरिक विमानोड्डयनानि दीर्घदूर्याः यातायातस्य साधनानि च सञ्चालने आनेतुम् निर्णीतम् वर्तते मन्त्रिपरिषदः उपवेशस्य निर्णयान् सार्वजनिकर्तुम् गतदिने सिंहप्रासादे आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च डा युवराज खतिवडा कोरोना विषाणोः संक्रमणस्य संकटस्य यथावत् संस्थितेः कारणात् सर्वकारेण आश्विनस्य प्रथमदिवसादेव अन्तर्जनपदीयानि दीर्घदूरी युतानि च यातायात साधनानि सञ्चालने आनेतुम् निर्णीतमस्तीति अवोचत असौ आगामिनः आश्विनस्य प्रथमदिवसात् आन्तरिकोड्डयनानि च सञ्चालने आनेतुम् निर्णीतमस्तीति अज्ञापयत् सर्वकारेण प्रत्यक्ष निर्वाचितानां सांसदानां नेतृत्वे सम्बद्ध क्षेत्रस्य समानुपातिक सांसदान् जनप्रतिनिधीनां रूपेण कोविड उनविंशतेः निरोधन नियन्त्रणोपचाराणां कार्याणाम् आवश्यके समन्वयानुगमने विधातुम् अनुरोद्धम् निर्णीतम् वर्तते मन्त्रिपरिषदः उपवेशेन संयुक्तराष्ट्रसंघस्य पञ्चसप्ततितम्यां महासभायां संगणक कीय श्रव्य दृश्य प्रविधेर माध्यमेन सहभागितायै प्रधानमन्त्रिणा केपी शर्मा ओलिनः नेतृत्वे दश सदस्यीयं प्रतिनिधिमण्डलं संघटितम् अस्तीति सर्वकारस्य प्रवक्ता मन्त्री डा खतिवडा अबोधयत् सर्वकारेण विदेशात् प्रतिदिनम् अष्टशतं नेपालिनः उद्धर्तुम् निर्णीतम् वर्तते सर्वकारेण पीसीआर परीक्षणस्य सजातारहितेभ्यः सऊदी अरब कुवेत कतार प्रभृति देशेभ्यो नियमितोड्डयनानां माध्यमेन यात्रिणाम् आनयनं निषेद्धुम् निर्णीतम् अस्तीति मन्त्री डा खतिवडा असूचयत् सर्वकारेण नेपालस्य शिक्षण संस्थासु पठनाय आजिगमिषुभ्यो विद्यार्थिभ्यो नेपालम् आगन्तुम् अनुमतिम् दातुम् च निर्णीतम् वर्तते भारतस्य पूर्वराष्ट्रपतिः प्रणव मुखर्जी चतुरशीतितमे वयसि इहो दिवंगतोऽस्ति मस्तिष्के रक्तस्य सीनानन्तरं गतस्य अगस्तमासस्य दशमे दिवसे चिकित्सालयं प्रविष्टस्य पूर्वराष्ट्रपतेः मुखर्जिनः कतिचित् दिनेभ्यः पूर्वं शल्यक्रिया विहिता आसीत् ह्यः स दिवंगत इति पूर्वराष्ट्रपतेः पुत्र पूर्वसांसदश्च अभिजित मुखर्जी ट्वीट संजाल माध्यमेन अज्ञापयत् पूर्वराष्ट्रपतिः मुखर्जी कोरोना संक्रान्तोऽपि आसीत् राष्ट्रपतिना विद्यादेवी भण्डारिणा भारतस्य पूर्वराष्ट्रपतेः प्रणव मुखर्जिनः निधनेन आत्मना मर्माहति अनुभूतेति व्यक्तास्ति गतदिने ट्वीट माध्यमेन राष्ट्रपतिना भण्डारिणा नेपाली जनतायाः नेपाल सर्वकारस्य स्वस्य च पक्षतः भारतीय जनतां भारत सर्वकारं शोकाकुल परिवार जनाञ्च प्रति संवेदनां व्यक्तवत्या मुखर्जिनः निधनेन नेपालेन एकं हितैषि मित्रं हापितम् अस्तीति उक्तं वर्तते एवमेव प्रधानमन्त्रिणा केपी शर्मा ओलिना च भारतस्य पूर्व राष्ट्रपतेः मुखर्जिनः निधनेन आत्मना दुःखम् अनुभूतम् अस्तीति व्यक्तवता दुःखस्य अस्याम् अवस्थायां भारत सर्वकारं भारतीय जनतां शोक संतप्त परिवार जनाञ्च प्रति संवेदना प्रकटितास्ति प्रधानमन्त्री ओली पूर्व राष्ट्रपतेः मुखर्जिनः निधनेन नेपालेन एकं हितैषि मित्रं हापितमिति उल्लिखन् मुखर्जिना विभिन्नेषु पदेषु स्थित्वा नेपाल भारतयो सम्बन्धं दृढयितुं प्रापितं योगदानमपि अस्मरत् नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवा भिदेन च सामाजिक सञ्जालस्य माध्यमेन भारतस्य पूर्व राष्ट्रपतेः मुखर्जिनः निधनं प्रति गभीरं दुःखं व्यक्तमस्ति नेपाले गतदिने अतिरिक्तेषु अष्टशते नवनवत्यां च जनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते पञ्चशतम् अष्टाशीतिश्च जनाः संक्रमणात् मुक्ताश्च सन्ति स्वास्थ्य जनसंख्या मन्त्रालयस्य नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापकः डा जागेश्वर गौतमः ह्यः आराष्टं विभिन्नासु प्रयोगशालासु एकादश सहस्रेषु शते ऊनत्रिंशति च जनेषु विहितेन परीक्षणेन अष्टशते नवनवत्यां च जनेषु संक्रमणं पुष्टीभूतम् अस्तीति अबोधयत् एतदनुसारेण नेपाले अधुनावधि कोरोना विषाणुना संक्रान्तानां जनानां संख्या ऊनचत्वारिंशत् सहस्राणि चतुश्शतं षष्ठिश्च प्राप्तेति मन्त्रालयेन ज्ञापितं वर्तते कोरोना विषाणोः संक्रमणेन ह्यः चत्वार पुरूषाः तिस्रो महिलाश्चेति कृत्वा सप्तजनाः अम्रियन्त एतदनुसारेण नेपाले कोरोना विषाणोः संक्रमणेन मृतानां जनानां पश्चात्तनी संख्या अष्टाविंशत्यधिक शतद्वयं प्राप्ता वर्तते ह्यः पञ्चशतम् अष्टाशीतिश्च जनाः संक्रमणात् मुक्ताः अभवन् एतदनुसारेण नेपाले कोरोना संक्रमणस्य पश्चात् प्राप्त स्वास्थ्य लाभानां जनानाम् अद्यावधिकी संख्या एकविंशति सहस्राणि चतुश्शतं दश च प्राप्ता स्थिति मन्त्रालयस्य प्रवक्ता डा गौतमः ज्ञापितवान् स्वास्थ्य जनसंख्या मन्त्रालयेन कोरोना विषाणोः संक्रमणात् रक्षणाय संक्रमणस्य प्रसारणस्य निवारणाय च दायित्ववायिनो भवितुं सर्वे नागरिकाः अनुरुद्धाः सन्ति। संक्रमणस्य अनुपाते एतस्यामेव गतौ सततं वर्धिते सति उपचारस्य स्रोतसाधनानाम् अभावः सम्भविष्यतीति भासमाणः मन्त्रालयस्य प्रवक्ता डा गौतमः पूर्वकार्याय नियन्त्रणाय च दायित्ववायिनो भवितुं व्यक्तिः परिवारान् समुदायं च अन्वरुणात्। स्वास्थ्य मन्त्रालयेन रियल टाइम पीसीआर विधेः परीक्षणस्य शुल्कं रूप्यकाणां सहस्रचतुष्टयं निर्धारितमस्तीति ज्ञापितं वर्तते। पीसीआर विधेः परीक्षणहीनेषु चिकित्सालयेषु चतुश्शताधिक सहस्रचतुष्टयस्य सम्भव परीक्षणेषु सर्वेषु चिकित्सालयेषु अधिकतमं सहस्रचतुष्टयस्य च रूप्यकाणां शुल्कं निर्धारितमस्तीति मन्त्रालयस्य प्रवक्ता प्राध्यापकः डा गौतमः ज्ञापितवान्। वीरगंज स्थाने प्लाज्मा थेरापी विधिना कोरोना संक्रान्तानां जनानां उपचारः प्रारब्धोस्ति। प्लाज्मा थेरापी विधिता वीतोपचाराणां संक्रान्तानां जनानां स्वास्थ्यं सुधारोन्मुखम् अस्तीति नारायणी चिकित्सालयस्य वरिष्ठ चिकित्सकः डा नीरज सिंह ज्ञापयति। प्लाज्मा थेरापी विधौ कोरोना संक्रमणस्य अनन्तरं स्वास्थ्यलाभ प्राप्तेः 14 दिनानां पश्चात् पूर्व संक्रान्तानां व्यक्तिनां रक्ते रोग प्रतिरोधिनी क्षमता उत्पद्यते। तथाविधानां व्यक्तिनां रक्ततः प्लाज्मा तत्वं निष्कास्य नूतन संक्रान्ताय जनाय प्रदीयते इति डा सिंह अज्ञापयत्। कोरोना संक्रमणे प्रतिदिनं वर्धमाने सति एतस्य निरोधन नियन्त्रणयोः कृते विभिन्नैः स्थानीय स्तरैः क्रियान्वितानां निषेधाज्ञा परिपिधानानां समयावधि वर्धापितो वर्तते इति समाचारः।